गतसप्ताहे शब्दविषयस्य शब्दविषये समाप्तिः शब्दविषयस्य समाप्तिः जाता. समानगुणजनकत्वम् इत्यस्मिन् विषये चर्चा अभवत्. न्यूनवृत्तिधर्मम् एव स्वीकरणीयं, तस्य स्वीकरणेन एव कार्यकारणभावः साधयितुं शक्नुमः इति सिद्धान्ती वदति. तेन प्रकारेण उदाहरणाभ्यां तेन साधितमस्ति यत् परामर्शस्य अनुमितिजनकत्वम् अपि च विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वम् एतयोः प्रसङ्गयोः ज्ञानत्वं किञ्चित् म्यूट् करोतु. अन्यः ध्वनिः आगच्छति इदानीं, कृपया म्यूट् करोतु. अस्तु, तर्हि परामर्शज्ञाने अपि च अनुमितिज्ञाने ज्ञानत्वम् अस्ति. ज्ञानत्वमिति स जातिः अस्ति. पुनः विशेषणज्ञाने विशिष्टज्ञाने च ज्ञानत्वम् अस्ति इति कृत्वा स्वजातीयगुणजनकत्वं दृश्यते, अन्यत्रापि दृश्यते इति सिद्धान्ती वदति. परन्तु पूर्वपक्षी वदति यत् तयोः उदाहरणयोः अपि यद्यपि ज्ञानत्वम् इति जातिः दृश्यते, प्रत्येकं ज्ञानं विशिष्टं भवति. इत्युक्ते परामर्शज्ञाने परामर्शत्वम् इति जातिः वर्तते, अपि तु अनुमितिज्ञाने अनुमितित्वम् इति जातिः. पुनः विशेषणज्ञाने विशेषणज्ञानम् इत्युक्ते विशिष्टः वर्णः इति स्वीकुर्मः, श्वेतं पुस्तकम् इति स्वीकुर्मश्चेत् श्वेते श्वेतत्वम् अस्ति, तत्तु विशेषज्ञानम् अस्ति. पुनः पुस्तके पुस्तकत्वं, परन्तु विभिन्नेषु प्रसङ्गेषु भिन्नानि ज्ञानानि भवन्ति इति कृत्वा तत्र सजातीयं न भवति एव इति पूर्वपक्षी वदति. तस्य समाधानं प्रायः न लभ्यते एव इत्यनेन शब्दप्रकरणस्य समाप्तिः जाता. तदनन्तरं ज्ञानम् इति विषयः आरभते. तर्हि लक्षणवाक्येन आरम्भं कुर्मः, ज्ञानस्य लक्षणवाक्येन. राजेन्द्रमहोदय पठति
वा?
पुष्पा भगिनी वा, अन्य केनापि आगतं वा?
नमस्ते भगिनी, अहं रत्ना अपि अस्मि.
हां भगिनी,
सर्वव्यवहारहेतुगुणः ज्ञानं बुद्धि सा द्विधा स्मृतिर् अनुभवम् अनुभवश्च बुद्धिलक्षणे समासविचारः. बुद्धिं लक्ष्यते सर्वव्यवहारहेतु इति. अतीतादिव्यवहारहेतु इत्यादौ काललक्षणे अतीतादे व्यवहारः इति विग्रह अभिधेयः. तत्र तस्यर्थः विषयत्वं. सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धि. अत्र लक्षणवाक्यं ज्ञानं बुद्धि बुद्धि समाने बुद्ध्ज्ञानं बुद्धि समाने एव
अग्रे उच्यते.
समानार्थकं,
परन्तु सर्वव्यवहारहेतुर्गुणः किञ्चित् प्रतिपादयतु महोदय.
स सर्वव्यवहार हेतु गुणः व्यवहार इत्युक्ते ज्ञानजनक शब्दप्रयोगः यः श्रोतुः मनसि आगच्छति ज्ञानं तत्तत् ज्ञानस्य गुणः ज्ञानं तत्तत् गुणः सः शब्दजनकप्रयोगः शब्दः तस्य गुणः ज्ञानम् अथवा बुद्धिः अस्ति.
एकनिमिषं महोदय, किञ्चित् क्रमेण वदतु कृपया. प्रथमं कस्य आत्मनि ज्ञानम् उदेति? किं दृष्ट्वा कस्य आत्मनि ज्ञानम् उदेति? प्रथमं
तु वक्तुः मनसि ज्ञानम् उदेति, आगच्छति.
प्रथमं वक्तुः आत्मनि ज्ञानम् उदेति. किं दृष्ट्वा वा कीदृशं ज्ञानम् उदेति?
कीदृशं ज्ञानम् इत्युक्ते
विषयः अस्ति, विषयानुकूलज्ञानम् उदेति खलु. तत् ज्ञानमेव अस्माकं प्रकरणमस्ति. अस्मिन् लक्षणवाक्ये तत् ज्ञानस्य सूचनमेव भवति. तेन ज्ञानेन किम् उदेति? ज्ञानं कं प्रति कारणं भवति?
श्रोतुः मनसि यथा ज्ञानम् उदेति तस्य प्रति कारणं भवति.
एवम् अत्र व्यवहारः इति अस्ति खलु लक्षणवाक्ये.
ज्ञानजनकशब्दप्रयोगः यथा वक्तुः कृतः तत्
अस्तु. वयम् एकम् उदाहरणं स्वीकृत्य प्रतिपादयामः. इदानीं भवान् घटं पश्यति, घटस्य दर्शनेन भवतः आत्मनि ज्ञानम् उदेति. कीदृशं ज्ञानम्?
अयं घटः.
अयं घटः इति ज्ञानम् अस्तु. केनापि मेलितम् अस्ति भवता, तर्हि भवान् किं वदति तम्?
अयं घटः.
अयं घटः तत्तु व्यवहारः अस्ति. यत् ज्ञानमस्ति भवतः आत्मनि, तस्मात् व्यवहारः जायते. अतः अयं घटः इति यत् भवान् वदति सः एव व्यवहारः. तं प्रति भवतः आत्मनि यत् ज्ञानम् अस्ति तदेव कारणम्. आम् व्यवहारः इत्युक्ते शब्दप्रयोगः, ज्ञानजनकशब्दप्रयोगः इति. तेन शब्दप्रयोगेन कीदृशं, कुत्र ज्ञानम् उदेति पुनः?
श्रोतुः ज्ञानम् उदेति.
समीचीनम्. इदानीं स्पष्टं खलु? तर्हि प्रथमं ज्ञानं तु कारणम् अस्ति व्यवहारं प्रति. द्वितीयं ज्ञानं व्यवहारस्य कार्यं भवति, व्यवहारेण जनितम् अस्ति. अतः द्वितीयं ज्ञानं कार्यं भवति श्रोतुः आत्मनि. स्पष्टं वा महोदय? तर्हि प्रथमं द्वितीयं वाक्यं द्विविधा स्मृति अनुभवश्च.
कोऽपि वक्तुः अस्ति, सः दृष्ट्वा तस्य आत्मनि ज्ञानम् उदेति. अयं घटः, सः अयं घटः व्यवहारे हेतु ज्ञानजनकशब्दप्रयोगः करोति. तदा श्रोतुः मनसि अपि ज्ञानम् उदेति अयं घटः. यथा यदा वक्तुः मनसि ज्ञानम् उदेति सः तु कारणमस्ति.
कं प्रति कारणं
यत्किमपि ज्ञानम् उदेति तत् तं प्रति कारणम् अस्ति अस्मिन् अस्मिन् उदाहरणे तु अयं घटः
वक्तुः मनसि यत् ज्ञानम् उदेति तत् ज्ञानं कारणम् अस्ति इति अत्र अस्ति लक्षणवाक्ये कं प्रति कारणम्
श्रोतुः
ज्ञाने कारणम् अस्ति खलु श्रोतुः मनसि वा व्यवहारः इति अस्ति खलु महोदय सर्वव्यवहार हेतुर्गुणः ज्ञानं बुद्धिः इति अन्य शुकवन महोदय किञ्चित् सहायं करोति वा
हा किन्तु भगिन्या चिन्तनं कथं चलति इति किञ्चित् मम अपि भ्रमः अस्ति भवता भवत्या उक्तं यत् ज्ञानेन व्यवहारः जायते यस्य ज्ञानम् इति तदनन्तरं व्यवहारेण ज्ञानं जायते द्वितीयज्ञानं तु श्रोतरि जायते इति
आम् आम् अग्रे अस्ति परन्तु लक्षणवाक्येन यत् सूचितम् अस्ति तत्तु ज्ञानं व्यवहारं प्रति कारणम् इत्येव
हा ज्ञानं व्यवहारं सर्वव्यवहारहेतुर्गुणः ज्ञानम् आम् सत्यम् अत्र तु ज्ञानं व्यवहारस्य कारणम् इति प्रथमं प्रायः प्रत्यक्षेण चक्षुषा वा अन्येन केनेन ज्ञानं वक्तुः प्राप्यते तदनन्तरं तेन ज्ञानेन व्यवहारं करोति इति कृत्वा ज्ञानं व्यवहारस्य कारणम् इति
आम् आम् समीचीनम् अस्तु अग्रे भवान् पठतु कृपया
हा सर्वव्यवहारहेतुर्गुणः इति ज्ञानम् इति गुणः अपि गुणः इत्यपि लक्षणवाक्ये दत्तं ज्ञानं बुद्धिः इति अस्ति इत्युक्ते ज्ञानमेव बुद्धिः इति अवगन्तव्यं सा द्विविधा सा इत्युक्ते बुद्धिः द्विविधा स्मृतिर् अनुभवश्च एकं तु स्मृतिरूपं द्वितीयं तु अनुभवरूपम् इति बुद्धेः द्वैविध्यम् अस्ति बुद्धिलक्षणे समासविचारः इति इदानीं
पठतु महोदय
हा बुद्धिं लक्षति सर्वव्यवहारहेतुर् इति अतीतादिव्यवहारहेतुरित्यादौ काललक्षणे अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः तत्र षष्ट्यर्थः विषयत्वं तस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः तद्घटकं यद् ज्ञानं तेन सह अन्वयः तथा च अतीतविषयकज्ञानजनकशब्दप्रयोगः इति अर्थः सिद्ध्यति बुद्धिं लक्ष्यति सर्वव्यवहारहेतुरिति बुद्धेः लक्षणं सर्वव्यवहारहेतुः इति लक्षणवाक्ये दत्तम् अतीतादिव्यवहारहेतुर् इत्यादौ अतीतादि इति इदानीं कालम् अतीतम् इति यदा वयं व्यवहारं कुर्मः अतीतादि तादृशव्यवहारहेतुर् इति आदौ काललक्षणे कालस्य लक्षणं यदा अस्माभिः पठितं तत्र अतीतादिव्यवहारहेतुर् हेतुः इति समासपदं दत्तं तस्य विवरणम् इदानीं आचार्येण प्रतिपादितमस्ति अतीतादिव्यवहारहेतुरित्यादौ काललक्षणे काललक्षणस्य तत्र अतीतादिव्यवहारहेतुः इति दत्तमस्ति तत्र अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः अतीतादेः व्यवहारः इति एव तत्र अतीतादिव्यवहारः इत्यस्य विग्रहवाक्यम् अतीतादेः व्यवहारः इति तत्र षष्ट्यर्थः विषयत्वं इत्युक्ते तत्र षष्ठी तत्पुरुषसमासमेव अभिप्रेतम् इति अतीतादेः व्यवहारः इत्युक्ते अतीतादेः इत्युक्ते अतीतानां विषयस्य व्यवहारः एव अतीतव्यवहारः इति
अतीतः यः विषयः तस्य व्यवहारः इति
अतीतः यः विषयः तस्य व्यवहारः अतीतव्यवहारः इति तस्य विग्रहवाक्यं तस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः तद्घटकं यत् ज्ञानं तेन सह अन्वयः तत्र तस्य इत्युक्ते कस्य व्यवहारस्य इति वा
न तस्य अत्र तस्य ज्ञानजनकशब्दप्रयोगरूपः इति पठतु तर्हि प्रायः अवगम्यते
तस्य ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः
तावत्पर्यन्तमेव कस्य ज्ञानजनकशब्दप्रयोगरूपः पूर्वमेव भवता उक्तम् अस्ति
अतीतादेः व्यवहारः इति वा
तर्हि
तत्र तदेव षष्टि अतीतादेः इति भवति
इत्युक्ते विषयत्वम् इति
विषयत्वम् इति तस्य इत्युक्ते विषयत्वस्य ज्ञानजनकशब्दप्रयोगरूपः इदानीं तत्र तस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः इदानीम् अत्र व्यवहारेण ज्ञानं भवति ज्ञानजनकशब्दप्रयोगरूपः इत्युक्ते व्यवहारेण ज्ञानं जनकं भवति तादृशशब्दप्रयोगरूपः यः व्यवहारः
व्यवहारेण ज्ञानम् एकनिमिषं महोदय व्यवहारेण ज्ञानं जन्यं भवति खलु व्यवहार
तेन घटकं ज्ञानं व्यवहारेण घटकं ज्ञानं
व्यवहारे यत् घटकम् अस्ति इत्युक्ते व्यवहार इत्युक्ते किम् कश्चन शब्दप्रयोगः
ज्ञानजनकशब्दप्रयोगः
यत् ज्ञानं जनयति इति तर्हि शब्दजनकशब्दप्रयोगरूपः इति अस्ति तत्र शब्दः तस्मिन् ज्ञानम् इति अस्ति खलु एकः अंशः वा भागः तदेव तत् घटकं यत् ज्ञानम् इति घटकम् इत्युक्ते अंशः
जन्यम् इति न वा घटकम् इत्युक्ते
न
तादृशव्यवहारे
भागः तस्मिन् व्यवहारे यत् ज्ञानम् अस्ति ज्ञानम् इति भागः यत् अस्ति तदेव घटकम् इति अर्थः व्यवहारं ज्ञानं जनयति खलु
भगिनी काललक्षणं किञ्चित् स्मारयतु भगिनी मया विस्मृतम्
अस्तु वेङ्कटेश महोदय वदति वा काललक्षणं किम् इति प्रायः नास्ति अस्तु श्रूयते महोदय
इदानीं हेतुः कालः इति काललक्षणं किल तत्र
आम् किञ्चित् प्रतिपादयतु
केवलं लक्षणवाक्यमेव स्मरामि
किम् अस्तु कालः इत्यस्य प्रसङ्गे कालस्य लक्षणवाक्यम् आसीत् अतीतादेः व्यवहारहेतुः इति कालेन किं जातं कालः इति द्रव्यम् अस्ति इति कृत्वा एव कश्चन शब्दप्रयोगः जायते अतः कालः कारणं भवति शब्दप्रयोगं प्रति कीदृशशब्दप्रयोगः घटः अतीतः वा घटः वर्तमानः वा घटः भविष्यति तादृशव्यवहारं प्रति कालः एव कारणं कालं न कालः नास्ति चेत् तादृशव्यवहारः न उदेति एव तस्मात् किं भवति श्रोतुः आत्मनि किमपि ज्ञानं जायते हा घटः घटः अतीतः इति ज्ञानं तस्य आत्मनि उदेति अतः तादृशं ज्ञानं प्रति कालः कारणम् इत्येव कालस्य लक्षणवाक्यं खलु महोदय
अनन्तरं तस्य व्यवहारेण तत्र शब्दप्रयोगः यत्र श्रोतृग्राहणमस्ति अतः श्रोतु मनसि बहु शब्दः तत्र तस्य तेन शब्दः भवति तत् शब्दस्य ज्ञानेन श्रोतुः मनसि घटकम् इति ज्ञानं तस्य आत्मनि
समीचीनमेव इदानीं स्पष्टं वा महोदय शुकवन महोदय
भवत्या उक्तं तद् घटः अतीतः नो वा घटः वर्तमानः घटः भविष्यति तादृश शब्दप्रयोग प्रयोगस्य हेतुर्भवति कालः
आम् 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 परन्तु अत्र विषयः अस्ति तद् घटकं यत् ज्ञानं तेन सह अन्वयः इत्युक्ते किम्
अत्र
महोदय तत्र व्यवहारस्य कृते क्षम्यतां कालः कारणमस्ति कीदृशव्यवहारः इति उक्तं तत्र यदि घटः अयं घटः इति ज्ञानं तत्र कालस्य योजनेन तत्र घटः अतीतः घटः वा कालः घटम् अस्ति वा घटम् आसीत् वा इति विषय ज्ञानं कालेन सम्बन्धित ज्ञानं तत्र व्यवहारः अस्तु वा भगिनि तथा
आम् 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 सम्यक् न श्रूयते महोदय
ओ न वा एकनिमिषं प्रायः मम इदानीं श्रूयते वा
इदानीं श्रूयते महोदय
अस्तु अस्तु उत्तमम् अस्तु तथैव तत्र काललक्षण अतीतादे व्यवहारः इति तत्र अतीतः आदिः तत्र वर्तमानः वा भविष्यः वा तादृशव्यवहारे कालव्यवहारज्ञानम् इति तत्र अस्ति यतः व्यवहारः इति व्यवहारः एव तत्र कालस्य योजनमपि तत्
श्रूयते वा महोदय शुकवन महोदय
ध्वनिः सम्यक् नास्ति तेन उक्तं
मम ध्वनिः वा
किञ्चित् खण्डयित्वा आगच्छति
त्रुटितः भवति अस्तु यथा महोदयेन उक्तं घटः अतीतः इत्यस्मिन् शब्दप्रयोगे किमपि ज्ञानं वर्तते तत्र
घटस्य
घटविषयकं ज्ञानं वर्तते तत्र
आम्
तादृशं ज्ञानं घटकं भवति अस्मिन् व्यवहारे इत्येव अर्थः
श्रूयते
महोदय
तादृशं ज्ञानं घटकं भवति इत्युक्ते व्यवहारेण ज्ञानम् उत्पद्यते इति वा
आम् 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 तादृशं ज्ञानं वर्तते तस्मिन् इत्यनेन एव श्रोतुः आत्मनि पुनः ज्ञानम् उदेति खलु इत्युक्ते शब्दप्रयोगे ज्ञानमेव अंशः अस्ति तस्मिन् इति कृत्वा पुनः ज्ञानम् उदेति श्रोतुः मनसि श्रोतुः आत्मनि तदेव अस्ति अत्र तद् घटकं यत् ज्ञानम् अस्तु अत्र तेन सह अन्वयः इति अस्ति सरला भगिनी इदानीं वक्तुं शक्नोति वा आम् आम् तेन सह अन्वयः इत्युक्ते किं भगिनि
तेन सह अन्वय अहं चिन्तयामि ज्ञानजनकशब्द प्रयोगेन ज्ञानशब्देन सह अन्वयः अस्ति
हा समीचीनम् अग्रे पठतु भगिनी पुनः वदतु तथा च
अतीतविषयकज्ञानजनकशब्दप्रयोग इति अर्थः सिद्ध्यति यदा ज्ञानजनकशब्दप्रयोग वक्तुः वदति तदा अतीतविषयकज्ञानशब्दप्रयोग इत्युक्ते अतीतस्य विषये यः ज्ञानम् अस्ति तस्य शब्दप्रयोगेन श्रोतुः आत्मनि ज्ञानम् उत्पद्यते
इत्युक्ते यत् विषयत्वं यत् अस्ति तस्य अन्वयः अतीतः घटः इत्यस्मिन् ज्ञानेन इत्यनेन ज्ञानेन सह भवति इति अर्थः ज्ञानजनकशब्दप्रयोगः इत्युक्ते कीदृशं ज्ञानम् अतीतः घटः इति ज्ञानम् इत्युक्ते अतीतविषयकज्ञानम् अतीतविषयकज्ञानजनकशब्दप्रयोगः इति अस्ति अतः विषयत्वं यत् अस्ति अतीत घटे यत् विषयत्वं वा अतीते अतीतत्वम् इति अस्ति तर्हि तस्य अन्वयः ज्ञानेन सह भवति इति अर्थः
इत्युक्ते यस्मिन् शब्दप्रयोगे यः विषयः अस्ति विषयकज्ञानम् अन्वयः अस्ति तद्विषयकज्ञानेन अन्वयः भवति
ज्ञानं विषयत्वस्य अन्वयः ज्ञानेन सह भवति इत्युक्ते विषयत्वम् अन्वेति ज्ञानम् इत्युक्ते विषयत्वम् अस्ति इति कृत्वा एव ज्ञानम् अस्ति इत्येव अर्थः अत्र अस्तु अग्रे पठतु भगिनि
प्रकृते तु न सर्वस्य व्यवहारः इति अर्थः किन्तु सर्वे ये व्यवहारा सर्वव्यवहाराः इति कर्मधारयः अग्रे पठामि
अग्रे पठतु भगिनि
अस्तु तेन ज्ञानजनकशब्दप्रयोगमात्रं प्रति ज्ञानस्य कारणत्वं लभ्यते न तु पूर्ववत् षष्टिचतुर्षः
हा तावत्पर्यन्तम्
यदि सर्वव्यवहार इति समस्तपदम् अस्ति तस्य विग्रहवाक्यं भवति सर्वे ये व्यवहारा अपि अस्ति कर्मधारय सर्वे ये व्यवहारा इति भवति व्यवहारस्य विशेषणं सर्वे सो इति सर्वव्यवहारा भवति कर्मधारय समास तेन ज्ञानजनकशब्दप्रयोगमात्रं प्रति ज्ञानस्य कारणत्वं लभ्यते यदि सर्वे ये व्यवहारा इति कर्मधारयसमासे वयं वदामः तेन व्यवहार ज्ञानजनकशब्दप्रयोगमात्रं ज्ञानजनकशब्दप्रयोग इव ज्ञानस्य कारणत्वम् अस्ति तस्मिन् व्यवहारे
अत्र अत्र मुख्यविषयः कः ज्ञानजनकशब्दप्रयोगमात्रं प्रति इति अस्ति मात्रम् इत्युक्ते
अत्र मात्रं केवलं नास्ति सामान्यम्
एकेपि व्यवहाराः सन्ति
ज्ञानस्य कारणं भवति
ज्ञानस्य कारणत्वं तेषां प्रति एकेपि व्यवहाराः तेषां प्रति कारणत्वं ज्ञाने ज्ञानं ज्ञाने अस्ति इति सामान्याः व्यवहाराः ये केऽपि भवन्तु तान् प्रति कारणत्वं ज्ञाने अस्ति इति षष्टितत्पुरुषश्चेत् किं भवति
षष्टिपुरुषे यथा पूर्वं वयं दृष्टवन्तः सर्वस्य व्यवहार
इति भवति
भवति
समीचीनम् सुनील् महोदय तस्मात् पठतु कृपया
तथा सति सर्वविषयं यत् ज्ञानं सर्वं प्रमेयमित्याद्याकारं तादृशज्ञानानुकूलव्यवहारं प्रत्येव ज्ञानस्य कारणतः लभ्येत न तु व्यवहारमात्रं प्रति अत्र सर्वविषयं ज्ञानं यत् अस्ति अत्र सर्वं ज्ञानम् इति आकारः अपि अस्ति
आकारः किं भवति सर्वं ज्ञानम् इति चेत् आकारः कः
अत्र केवलम् एकस्मिन् लक्ष्ये एव न भवति सर्वत्र
आकारः इत्युक्ते स्वरूपः कः भवति सर्वं प्रमेयम् इति सर्वं प्रमेयम् इत्युक्ते सर्वं ज्ञातं वा अहं सर्वं जानामि इति आकारः भवति इति शब्दप्रयोगरूपः भवति अहं सर्वं जानामि इति सर्वं प्रमेयम् इति
अतः अत्र तादृश व्यवहारं प्रति ज्ञानस्य कारणतः अपि आगच्छति
केन समासेन
षष्टि तत्पुरुषः किल अतः व्यवहारमात्रं प्रति न आगच्छति इति यदा षष्टि तत्पुरुषम् उपयोगं कुर्मः चेत्
समीचीनं रत्ना भगिनी अग्रे पठति वा रत्ना भगिनी अस्तु प्रायः नास्ति
भगिनि
आं पठति वा भगिनि
इदानीं क्षम्यताम् अहं म्यूट् मध्ये आसम् इष्टं च ततः आरभ्य किल अस्तु इष्टं च अयं घटः इति व्यवहारं प्रत्यपि ज्ञानस्य कारणत्वं तज्जन्यं च ज्ञानं न सर्वविषयकमिति षष्टितत्पुरुषाङ्गीकारे तादृशव्यवहारजनके घटज्ञाने अव्याप्तिरिति कर्मधारय एव साधुः अस्तु अस्माकं विषयः अस्ति अयं घटः इति तदेव अस्माकम् इष्टम् अस्ति तदेव अयं घटः इति व्यवहारः अस्माकम् इष्टं व्यवहारं प्रति अपि ज्ञानस्य कारणत्वम् अस्तु यथा पूर्वम् उक्तं प्रथमज्ञानम् प्रथमं प्रत्यक्षज्ञानं दृष्ट्वा वक्तुः मनसि अथवा वक्तुः आत्मनि ज्ञानम् उत्पद्यते तदेव ज्ञानम् अयं घटः इति व्यवहारस्य प्रति कारणं भवति इत्युक्ते ज्ञानस्य कारणत्वं तदेव कारणं भवति. तज्जन्यं च इत्युक्ते अयं घटः इति जन्यं भवति ज्ञानं जनकं विषयः व्यवहारः जन्यः इति किल
भवति. आम् अत्र पूर्वं षष्टितत्पुरुषसमास विषयः उक्तः अस्ति, परन्तु अस्माकं यत् इष्टम् अयं घटः इति व्यवहारः, न तु अहं सर्वं प्रमेयं, न तु सर्वं प्रमेयम् इति व्यवहारः. यतोहि अस्माकं पुरतः घटः अस्ति, अयं घटः इति ज्ञानम् उदेति आत्मनि, तस्मात् व्यवहारः अस्ति यत् इष्टम् अस्ति अयं घटः इत्येव व्यवहारः. तं प्रति एव ज्ञाने कारणत्वं भवेत्, न तु सर्वे सर्वं प्रमेयम् इति व्यवहारं प्रति एव अर्थः अत्र.
अस्तु, तज्जन्यं च ज्ञानं न सर्वविषयकम् इति यथा भवती उक्तवती, तज्जन्यं च यत्किमपि ज्ञानं भवति तस्मात् अयं घटः इति वदनेन न सर्वविषयकम् इति, इत्युक्ते यथा भवत्या उक्तं सर्वविषयाणां किं मेलनं तत्र नास्ति, केवलं घटस्य विषयः अस्ति तत्र. इति षष्टितत्पुरुषाङ्गीकारे तादृशव्यवहारजनके घटज्ञाने इति षष्टितत्पुरुषाङ्गीकारे, इत्युक्ते षष्टितत्पुरुषम् अङ्गीकुर्मः चेत् तदा सर्वविषयकमिति आगच्छति किल भगिनि. तादृशव्यवहारजनके घटज्ञाने अव्याप्तिरिति, इत्युक्ते यदि षष्टितत्पुरुषसमासं स्वीकुर्मः तत्र अव्याप्तिदोषः भवति, केवलघटज्ञानम् एव अस्माकम् इष्टः अस्ति, अतः कर्मधारयः एव साधुः.
कथम् अव्याप्तिः इति किञ्चित् वदति वा? क्रमेण गच्छामः भगिनि. प्रथमं घटः इति विषयः, तदनन्तरं घटज्ञानं भवति वक्तुः आत्मनि, तदनन्तरं षष्टितत्पुरुषेण सर्वं जानामि वा सर्वं प्रमेयम् इति व्यवहारः भवति खलु. तर्हि घटज्ञानेन सर्वं जानामि इति व्यवहारः कथं भवितुम् अर्हति?
न भवितुम् अर्हति.
अतः सर्वं जानामि इति व्यवहारः जायते चेत् सर्वविषयः भवेयुः, सर्वे विषयाः भवेयुः
इत्यस्मिन् स्थाने
सर्वे विषयाः भवेयुः, न केवलं घटः एव खलु. प्रायः ईश्वरस्य ज्ञानं तादृशं भवति, सर्वविधं ज्ञानम् एकस्मिन् क्षणे भवति ईश्वरस्य आत्मनि इति पूर्वं पठितमस्ति अस्माभिः. परन्तु अत्र घटज्ञानमेव अस्ति, तर्हि घटज्ञानम् एकदेशज्ञानं खलु. घटज्ञानमेव अत्र सूचितम् अस्ति, परन्तु अन्यानि ज्ञानानि अन्यविषयकज्ञानानि बहिर्भूतानि खलु. यथा अतिव्याप्तिदोषे किं भवति? एकदेशवृत्तित्वं भवति खलु. इत्युक्ते गोः वर्णः रक्तवर्णः एव तस्य लक्षणम् इति भवति चेत् किं भवति, कीदृशः दोषः भवति तत्र? रक्तवर्णः एव गोः लक्षणम् इति अहं वदामि चेत्
कीदृशः दोषः
भवति? अतिव्याप्तिः वा?
इत्युक्ते रक्तवर्णः अन्यत्रापि लभ्यते
अन्यत्रापि, परन्तु रक्त गोत्वलक्षणं रक्तवर्णः इति चेत् कृष्णवर्णः वा श्वेतवर्णः सर्वाः बहिर्भूताः खलु, तादृशं न भवति. स्पष्टं वा? यदि गां दृष्ट्वा अहं वदामि हा गोत्वस्य लक्षणं रक्तवर्णः इति अहं वदामि चेत् तत् साधु न, यतोहि
अन्यवर्णाः अपि भवन्ति गोषु.
हा इति कृत्वा रक्तवर्णे अव्याप्तिदोषः भवति.
अस्तु
खलु, यतोहि रक्तवर्णः एकदेशे एव वर्तते, परन्तु समग्रः जातिः गोजातिः यः अस्ति तस्य किं ते सर्वे न अन्तर्भूताः तस्मिन् खलु लक्षणवाक्ये इति कृत्वा रक्तवर्णे अव्याप्तिः भवति. तस्य व्याप्तित्वं सर्वत्र न भवति, अतः एकदेशे एव अस्ति. अत्रापि तदेव घटज्ञानं यत् अस्ति घटज्ञानं तु एकदेशे एव वर्तते, परन्तु अहं सर्वं जानामि इति वदामिश्चेत् अन्यविधज्ञानानि बहिर्भूतानि खलु इति कृत्वा घटज्ञाने अव्याप्तिः भवति षष्ठी तत्पुरुषसमासे.
भगिनि क्षम्यतां, प्रश्नः अस्ति अत्र मम. इदानीं तथा सति सर्वविषयकं यत् ज्ञानं सर्वं प्रमेयम् इत्याद्याकारं तादृश ज्ञानानुकूलव्यवहारं प्रति एव ज्ञानस्य कारणता लभ्येत, न तु व्यवहारमात्रं प्रति. तर्हि तत्र इदानीं तस्मिन् सन्दर्भे यदा वयम् अयं घटः इति व्यवहरामः तादृशज्ञानम् एव तत्र अस्माकम् इष्टं ज्ञानं तत्र तादृशव्यवहारमस्ति ज्ञानस्य कारणत्वं तस्मिन् सन्दर्भे. यद्यपि तत्र ज्ञानं तु सर्वविषयकम् इति अस्ति, परन्तु षष्ठी तत्पुरुषः इति स्वीकुर्मः चेत् तत्र अयं घटः इति व्यवहारं प्रति तत्र ज्ञानस्य कारणत्वं वयं वक्तुं न शक्नुमः तत्र इति वा अर्थः?
आम् 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 आम्
तदेव किल. अस्तु, यतः तत्र न तु व्यवहारमात्रं प्रति, तत्र महोदयेन उक्तं तत्र मात्रम् इति केवलम् इत्यर्थे नास्ति इति किल.
इत्युक्ते यत्किमपि भवतु विषयः तं प्रति कारणत्वं ज्ञाने भवेत् इति. रत्ना भगिनि?
आं भगिनि.
हा इति कृत्वा किम् अन्तिमं वाक्यम्?
अन्तिमम् इति कृत्वा अतः कर्मधारयसमासः एव स्वीकरणीयः अत्र.
किमस्ति कर्मधारयसमासः?
कर्मधारयः
वदतु भगिनि.
षष्ठी भवति चेत् सर्वेषाम् इति भवति, कर्मधारयः भवति चेत् तत्र
समानविभक्तिकत्वं खलु कर्मधारे समासे इति सर्वे ये व्यवहाराः.
अस्तु, सर्वे
सर्वस्य व्यवहारः इति न, यथा काललक्षणे आसीत् अतीते अतीतादेः व्यवहारः अतीतस्य व्यवहारः इति न, सर्वस्य व्यवहारः इति न, सर्वं जानामि इति व्यवहारः न, तस्य तद्विषयकं ज्ञानं न, परन्तु व्यवहारमात्रं प्रति कारणत्वं ज्ञाने इति.
अस्तु, प्रथमाविभक्ति उपयोगं कुर्मः. सर्वे व्यवहारः,
सर्वे ये व्यवहाराः, ये केऽपि व्यवहाराः सन्ति तेषां प्रति कारणत्वं ज्ञाने भवेत् इति. अत्र सन्देहः अस्ति वा? आम्,
संक्षेपे पुनः एकपरिच्छेदस्य विवरणं करोतु.
अस्तु अस्तु भगिनि. अत्र सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः अति इति अस्ति. काललक्षणे अस्माभिः दृष्टं यत् अतीतादेः व्यवहारः अतीतादिव्यवहारहेतुः कालः इति. अत्र अतीतः घटः इति विषयः, तस्य विषयं प्रति व्यवहारः, तस्य अतीतः घटः इति व्यवहारं प्रति कालः कारणम् अस्ति. अतीतस्य घटस्य व्यवहारः, अतीतः घटः इति व्यवहार इत्युक्ते यत् वयं वदामः, यत् येन प्रकटीकुर्मः किमपि दृष्ट्वा, अतीतस्य व्यवहारः एव काललक्षणम् अतीतादिव्यवहार इति. परन्तु तादृश विग्रहप्रयोगः ज्ञानलक्षणे वयं न कुर्मः. किमर्थम् इत्युक्ते सर्वव्यवहारहेतुर्गुणः इति भवति. यदि काललक्षणे काललक्षणवत् वयं षष्ठी तत्पुरुषसमासस्य प्रयोगं कुर्मः चेत् सर्वस्य व्यवहारः इति भवति. सर्वस्य व्यवहारः कथं भवति, कथं श्रूयते सर्वस्य व्यवहारः इत्युक्ते अहं सर्वं जानामि, सर्वं प्रमेयम् इत्येव तस्य आकारः भवति. तत्र यत्किमपि वयं पश्यामः, कूपीं वा पुस्तकं वा घटं, तस्मिन् अव्याप्तिदोषः वर्तते. यतोहि घटे सर्वविधं ज्ञानं न वर्तते, घटे घटविषयकं ज्ञानमेव वर्तते खलु. घटं दृष्ट्वा घटविषयकं ज्ञानमेव उदेति, न तु सर्वविषयकं ज्ञानम् इति कृत्वा घटे अव्याप्तिः दोषः भवति. अतः तस्य निवारणं कथं भवति, कर्मधारयसमासस्य प्रयोगेन भवति. कर्मधारयसमासश्चेत् सर्वे व्यवहाराः ये तेषां प्रति कारणत्वं ज्ञाने इति लक्षणवाक्यम् इत्युक्ते यत्किमपि व्यवहारः भवतु, अयं घटः वा इदं पुस्तकं वा श्यामः सम्प्रति श्यामकालः इति यत्किमपि भवतु, सामान्यव्यवहारं प्रति कारणत्वं ज्ञाने इति ज्ञानस्य लक्षणवाक्यं तदेव अस्ति. स्पष्टं वा?
आम् आम्.
सन्देहः अस्ति वा कस्यापि? राजेन्द्रमहोदय.
अवगच्छामि, किञ्चित् पुनः चिन्तनं करोमि, परन्तु इदानीं
न सन्देहः अस्ति चेत् इदानीमेव निवारयामः.
न, इदानीं तु संशयः नास्ति, यथा भवती उक्तवती तत् सम्यक्तया अवगतं चिन्तयामि.
अस्तु, रत्नं भगिनि, स्पष्टं खलु?
यदुक्तं तद् अवगच्छामि भगिनि, किन्तु षष्ठी उपयुज्य कथं सर्वस्य ज्ञानम् इति, सर्वस्य व्यवहारः, किन्तु सर्वे व्यवहारः अपि तथा एव.
प्रायः किञ्चित्
तत्र
अहं मम चिन्तनं वदामि, प्रायः भवती स्पष्टीकरोतु. तत्र सर्वस्य अहमपि इदानीं भवत्याः वदनस्य पूर्वं किञ्चित् ममापि भ्रमः आसीत्, इदानीं जातः. सर्वस्य व्यवहारः इति कथनेन तत्र प्रायः यद्यपि वयं स्वीकर्तुं शक्नुमः, लोके ये जनाः सन्ति तेषां सर्वस्य व्यवहारः, अथवा वस्तूनि यानि यानि वस्तूनि सन्ति सर्वस्य व्यवहारः इत्युक्ते सः तु सर्वज्ञानी इति, सर्वं प्रमेयं, सर्वम् अहं जानामि, तादृश अर्थः एव सूचयति. परन्तु लोके ये व्यवहाराः सन्ति, उदाहरणार्थम् अयं घटः, इदं दूरदर्शनं, तादृशव्यवहाराः ये सन्ति तेषां प्रति ज्ञानं कारणत्वम् इति वक्तुं न शक्नुमः तादृशस्वीकरणेन. अतः एव तत्र कर्मधारयः सर्वे व्यवहाराः इति वदनेन एव तादृश अव्याप्तिदोषः निवारयति, न तु षष्टितत्पुरुषेण सर्वस्य व्यवहारः इति कथनेन इति एव तत्र संक्षिप्त अर्थः इति अहं चिन्तयामि.
समीचीनमेव रत्ना भगिनी. सर्वस्य व्यवहारः इत्युक्ते सर्वम् इति भवती वदति चेत् भवत्याः आत्मनि सर्वम् इति ज्ञानम् अस्ति चेत् कथं तस्य प्रकटनं करोति?
अस्तु, न कर्तुं शक्नोमि सर्वस्य.
न न, किञ्चित् किमपि वदति खलु, सर्वम् अस्ति, सर्वं ज्ञानं, सर्वविषयकं ज्ञानम् अस्ति मम आत्मनि इति चिन्तनम् अस्ति चेत् किं वदति भवती?
सर्वेषां ज्ञानम् अस्ति,
अहं सर्वं जानामि इत्येव वदति खलु, न तु अयं घटः इति खलु. सर्वं किं जानाति भवती इति अहं प्रश्नं करोति चेत्, प्रश्नं पृच्छामि चेत् भवती सर्वम्, अहं सर्वं जानामि इत्येव उत्तरं ददाति खलु.
अस्तु,
हा, तदेव भेदः अत्र.
अस्तु,
परन्तु अत्र विषयः सर्वः इति न, सर्वः इति वदने वा सर्वः, सर्वस्य व्यवहारः इति वदनेन तत्र सर्वं प्रमेयम् इत्येव व्यवहारः भवति, न तु विशिष्टव्यवहार विशिष्टविषयकं व्यवहारः इति.
तत्तु अतिव्याप्तिः न, सर्वं जानाति इति
अव्याप्तिदोषः भवति भगिनि, यतोहि अहं सर्वं न, सर्वं प्रमेयम् इति व्यवहारः भवति चेदपि सर्वं न द्रष्टुं शक्नुमः खलु. घटं दृष्ट्वा सर्वं जानामि इति वदनेन किं भवति? अहं दूरवाणीं पश्यामि, दूरवाणीं दृष्ट्वा अहं सर्वं जानामि इति अहं वदामि चेत् तत्र दूरवाण्या अव्याप्तिः दोषः भवति. किमर्थम्? दूरवाण्या सर्वविषयकं ज्ञानं नास्ति इति कृत्वा. दूरवाण्यां सर्वाः विषयाः अन्तर्भूताः वा? न, प्रपञ्चस्य सर्वाः विषयाः न अन्तर्भूताः खलु तस्मिन्, तस्यां. तदेव तस्मिन् यत्किमपि वस्तु भवतु तस्मिन् अव्याप्तिः दोषः भवति सर्वम् इति वदनेन. अतः दूरवाणी पश्यामि चेत् अहं दूरवाणीं पश्यामि, तदेव इष्टम् अस्माभिः खलु. इदानीं स्पष्टं वा रत्ना भगिनी?
आम् आम् भगिनि, इदानीं स्पष्टम्
अस्तु.
भगिनी तत्र अव्याप्तिः वदति किल, तत्र इदानीमपि मम भ्रमः अस्ति.
सर्वम्
इति वदामश्चेत्, एकनिमिषं भगिनि, सर्वम् इति वदामश्चेत् तस्मिन् घटः अपि अन्तर्भूतः एव किल?
परन्तु श्रोतुः आत्मनि कीदृशं ज्ञानम् आवश्यकम् अपेक्षितम् अस्ति? घटस्य ज्ञानमेव खलु. किमर्थम्? अहं घटमेव पश्यामि तत्समये. परन्तु सर्वम् इति वदनेन श्रोतुः आत्मनि कथं घटस्य ज्ञानं भवति?
सर्वस्य ज्ञानं भवति यदि तादृशं भवितुम् अर्हति चेत्, सर्वस्य ज्ञानं भवति. तस्मिन् घटज्ञानमपि अन्तर्भूतमस्ति किल
महोदय? तत्र इदानीं वदामि, सब्सेट् इति स्वीकरोति चेत् इदानीम् अयं घटः इति विषयः व्यवहारः इस् मोर् क्लोज़र् टु लोके ये व्यवहाराः सन्ति तस्मिन् अन्तर्भूतः विषयः, न तु अहं सर्वं जानामि इति विषये. तथा लघुभेदः अस्ति. सर्वं जानामि इति कथनेन तत्र निश्चयेन वक्तुं न शक्नुमः अयं घटः इति विषयः अपि अन्तर्भूतः इति. परन्तु लोके ये व्यवहाराः इति वयं वदामः, तत्र निश्चयेन वक्तुं शक्नुमः अयं घटः इति व्यवहारः अपि तस्मिन् अन्तर्भूतः इति. तथा एव तत्र स्वीकरणीयः भवति. तत्र तथा एव तत्र विवादस्पदः भवतः प्रश्नः, सर्वं जानामि इति कथनेन घटम् इति विषयः अपि न जानाति वा इति विवादं कर्तुं शक्नुमः, परन्तु तस्य समाधानम् एवमेव भवति इति मम विचारः. भवती किं चिन्तयति भगिनि?
तदेव यत् यत् भवता उक्तं वाट् इस् एक्स्प्रेस् इस् नाट् ईक्वल् टु वाट् इस् इण्टेण्डेड्
करेक्ट् इट् इस् नाट् काम्प्रिहेन्सिव् लैक् तथा स्वीकरोतु तत्र किञ्चित् तत्र अव्याप्तिः अतिव्याप्तिः सम्यक् अवगमनेनैव तस्य निवारणं भवति.
हा महोदय, शुकमन महोदय, पूर्वस्मिन् वाक्ये किम् आसीत्? विषयत्वस्य अन्वयः ज्ञानेन सह इति अस्ति खलु. तर्हि ज्ञानं किं, कीदृशं ज्ञानम् अत्र कीदृशं ज्ञानं what do I wish to pass on iti asti kalu sarvam iti vadanena ghatasya jnanam prakatayitum shaknomi va iti eva tatra bedah
aham etadrisham chintayami bhagini tatra sarvasya jnanam ityupye sarvam iti padam asti kila
aham
tadeva sarvasya jnanam ityukte loke ye ye padarthaha santi तेषां सर्वेषां ज्ञानम् इति स्वीकुर्मश्चेत् तत्र किञ्चित् भ्रमः भवति. किन्तु सर्वम् इति पदम्
इति स्वीकुर्मश्चेत् भेदः कः महोदय? सर्वं प्रमेयम् इत्युक्ते किं? सर्वम् इत्युक्ते न केवलं पदं, तत्र शाब्दबोधः अस्ति खलु.
न कथं सर्वस्य व्यवहारः कथं वयं कर्तुं शक्यते?
शब्दव्यवहारः इत्युक्ते समस्या खलु.
एकनिमिषं भगिनि, स व्यवहारः इत्युक्ते शब्दप्रयोगः. अयं घटः इति शब्दप्रयोगः कुर्मश्चेत् यः तस्य तद् श्रूयते तस्मिन् अयं घटः इति ज्ञानं जायते. स तादृशं सर्वस्य व्यवहारः इत्युक्ते सर्वस्य शब्दप्रयोगः इति तत्र कथं वक्तुं शक्यते? सर्वस्य इत्युक्ते तत्र केवलं सर्वम् इति पदस्य एव व्यवहारं कर्तुं शक्यते, न तु सर्वस्य. ये ये पदार्थाः लोके सन्ति तादृशं तत्र अर्थमेव न सङ्गच्छते. यद्यपि ईश्वरस्यापि ईश्वरः सर्वज्ञः, किन्तु सः अन्य कोऽपि विषयं वक्तुम् इच्छति चेत् एकमेव स्वीकर्तुं व्यवहारं कर्तुं शक्यते. सर्वस्य व्यवहारं न कर्तुं शक्यते सः.
अत्र प्रथमा
महोदय, तत्र एकं वदामि, मम समाधानं तत्र शब्दः इति शब्दस्य लक्षणं किं? श्रोतुग्राह्यो गुणः शब्दः. तर्हि श्रोतु मनसि व्यवहारस्य ज्ञानम् उत्पादयितुमेव शब्दः अत्र उत्पादितः. तदा सर्वस्य सर्वं जानामि इति कथनेन तादृशव्यवहारशब्दः मनसि कथं पद्यते? व्यवहारलोके अयं घटः इति व्यवहारेण तत्र शब्दः वक्ता अयं घटः इति ज्ञानं तस्य अस्ति, तद् वक्तुमिच्छति. तदा श्रोतृमनसि अयं घटः इति ज्ञानं तत्र व्यवहारः लोके व्यवहारः अयं घटः अतीतो घटः तादृशव्यवहाराः सन्ति भिन्नभिन्नः. तेन कारणेन श्रोतृगाह्यगुणः शब्दः उत्पद्यते, तेन सः अवगच्छति अयं घटः इति. परन्तु अहं सर्वं जानामि इति केवलं तत्र सर्वज्ञः इति कथने तस्य भिन्नरूपेण वक्तुं शक्यते. ओ इति विषये अपि तस्य अन्तर्भूतयति, परन्तु साक्षात् व्यवहारः लोके इति वदनेन तत्र अयङ्गः इति व्यवहारः इत्युक्ते तादृशव्यवहारः इति घटः अयं घटः इति इष्ट ज्ञानं शब्दः तत्र उत्पादयितुं साक्षात् न शक्यते.
न विवक्षितम् अस्ति घटस्य विषयः, न विवक्षितं तेन एव. अस्तु महोदय, समयः जातः. अग्रे चिन्तयामः अस्मिन् विषये. अस्तु राजेन्द्रमहोदय, साङ्ख्यमते इति आरभ्य.
साङ्ख्यमते ज्ञानं बुद्धिः उपलब्धिः इत्यादि विगणात् कानि निराकरणं निराकरणायाः ज्ञानं बुद्धिर् इति तयोः पदयोः ज्ञायता अनेन सूचिता. साङ्ख्यमते यथा साङ्ख्य दार्शनिकमतेन पश्यामः ज्ञानम् अथवा बुद्धिः तत् उपलब्धिः तत् विभिन्नार्थकपदानि भिन्नाः सन्ति. ज्ञानं भिन्नं, बुद्धिः भिन्न, उपलब्धिः भिन्नं. तन्मत् निराकरणायाः ज्ञानं बुद्धिर् इति. तन्मत् इत्युक्ते किं भगिनि?
तन्मत् इत्युक्ते
साङ्ख्यमतं. तत् निराक्रियते करणार्थं ज्ञानं बुद्धिः एकम् एव अस्ति. तयोः प्रयावाचक शब्दाः सन्ति ते ज्ञानं बुद्धि एक एक तत्र अर्थः अस्ति समानार्थः. यद्यपि साङ्ख्यमते ते भिन्नाः विभिन्नाः पदार्थाः सन्ति परन्तु
अस्तु समीचीनम्. अग्रे अपि पठतु महोदय.
तस्य ज्ञानस्य विभागमाः स्मृति अनुभवश्चेति यद्यपि अनुभवः संस्कारद्वारा स्मृतिं जनयति इति जनकम् अनुभवं निरूप्य एव स्मृतेः निरूपणम् उचितं तथापि अनुभवस्य द्वैविध्यं तत्रापि यथार्थ अनुभवस्य चातुर्विध्यं तत्करणं च निरूपणीयम्.
एवं तावत्पर्यन्तं वदतु महोदय.
तस्य ज्ञानः द्विविधा अस्ति. ज्ञानं द्विविधा अस्ति. एतत् स्मृतिज्ञानम् अथवा अनुभव ज्ञानं द्विविधा अस्ति. यद्यपि अनुभवः संस्कारद्वारा स्मृतिं जनयति. इदानीं वदति अनुभवद्वारा यत्किमपि वयम् अनुभवामः तेन द्वारा संस्कारद्वारा तत् संस्कारद्वारा स्मृतिं जनयति इति जनकम् इत्यर्थे अनुभवः जनकम् अस्ति स्मृतिः कृते. अनुभव निरूप्यम् एव स्मृतेः निरूपणम् उचितं तथापि अनुभवस्य द्वैविध्यं निरूपणार्थं निरूपणम् उचितं यथा अत्र लिखितम् आसीत् अनुभवः समृतिं जनयति. अनुभवेन समृतिं जायते तथा निरूपणम् अनुभवं समृतेः निरूपयति. परन्तु तथापि अनुभवः द्विविधा अस्ति. तत्र अपि यथार्थ अनुभवस्य चतुर्विध्यं तत्र द्विविधम् अनुभवे तत्र एकं यथार्थ अनुभवः अस्ति सापि तदपि चतुर्विध्यम् अस्ति. तत् कारणं च निरूपणीयं तथा तथैव तत् निरूपणीयं तत्र यथा अनुभवः द्विविधम् अस्ति यथा अनुभवः चतुर्विध्यम् अस्ति तथा निरूपणीयं यदा
एवम् अत्र भवान् पठतु महोदय.
एवं तत्तत् सहकारिणः सन्निकर्षव्याप्तिज्ञानशक्तिज्ञानादायः अनेके निरूपणीयाः भवन्ति. यथा अत्र लिखितम् अस्ति द्विविधम् अस्ति तत्र यथा अनुभवः चतुर्विध्यम् अस्ति.
अनुभवः द्वैविध्यम् इति अनुभवस्य द्वैविध्यं प्रथमविधः कः?
यथार्थानुभवः.
द्वितीयविधः?
अयथार्थ
अनुभवः. अत्र न लिखितमस्ति परन्तु महोदयेन उक्तं यथार्थानुभवः अयथार्थ अनुभवः इति
अनुभवः द्वितीयप्रकारः
अयथार्थः
अयथार्थः
यथार्थ इत्युक्ते सत्य अनुभवः यत् अस्ति तस्य ज्ञानम् अस्ति परन्तु मिथ्यज्ञानम् इति वदामः खलु इत्युक्ते किं रज्जुं दृष्ट्वा सत्यस्य ज्ञानं वा किमपि तादृशम् असत्यम् अयथार्थ अनुभवः इति पुनः यथार्थ अनुभवस्य चातुर्विध्यं ते के
स्मरामि
अस्तु अग्रे वेङ्कटेश महोदय वदति वा
चातुर्विद्यं तत्र तस्य
ज्ञानस्य चतुर्विधम् इति अस्ति अन्य सरला भगिनी
प्रत्यक्षं
प्रत्यक्षज्ञानम्
अनुमतिज्ञानं शाब्दबोधः अनन्तरम् उपमितिः खलु
अनुभाविकज्ञानम् अनुमितिज्ञानम्
एकनिमिषं भगिनी अनुभवस् यथार्थज्ञानस्य चतुर्विधाः प्रत्यक्षज्ञानं
प्रत्यक्ष
अनुमितिज्ञानम्
अनुमितिज्ञानं शब्द
शब्दबोधः उपमितिः उपमितिः इत्युक्ते तुलना कम्पेरिसन् इति
अस्तु
प्रत्यक्षं यत् प्रत्यक्षं वयं पश्यामः वा शृणुमः तत् प्रत्यक्षज्ञानम् अनुमिति इत्युक्ते भवती तु जानाति खलु चत्वारि सोपानानि सन्ति तस्मिन् शाब्दबोधः शब्देन यः बोधः जायते तत् शाब्दबोधः उपमितिः इत्युक्ते तादृशम् अस्ति तत्तु उपमितिः ज्ञानम् हिम इव अस्ति इत्युक्ते तत्र उपमिति ज्ञानम् इति अस्तु सावित्री भगिनी अस्ति वा न प्रायः सरला भगिनी अन्तिमं वाक्यं प्रतिपादयति वा एवं तत् तत् सहकारिणः इति
एवं तत् तत् सहकारणव्यापिज्ञानशक्तिज्ञानादाय अनेके निरूपणीयाः भवन्ति
इत्युक्ते रत्ना भगिनी वदति वा
प्रयत्नं करोमि भगिनि एवं तत् तत् सहकारिणः इत्युक्ते सहकारिणः
इत्युक्ते
भिन्नभिन्नज्ञानम्
इत्युक्ते सहकारी इत्युक्ते ये साक्षात् कारणम् इति नास्ति परन्तु तस्य उपकारेण तस्य उपकारेण ज्ञानं जायते इत्युक्ते इन्द्रियार्थसन्निकर्षेण प्रत्यक्षज्ञानं भवति अतः इन्द्रियार्थसन्निकर्षः इति सहकारी प्रत्यक्षज्ञानस्य सहकारी पुनः अनुमितिज्ञानस्य सहकारी किम् अस्ति
अनुमितिज्ञानस्य तु परामर्शः
हा अत्र व्याप्तिज्ञानम् इति अस्ति
अस्तु
परामर्शज्ञानं कारणमेव भवति अनुमितिज्ञानं प्रति अत्र सहकारी इत्युक्ते व्याप्तिज्ञानम् इति व्याप्तिज्ञानं नास्ति चेत् परामर्शः वा अनुमितिः एव न भवति खलु परम्परया शाब्दबोधस्य सहकारी अस्ति शक्तिज्ञानम् इत्युक्ते पदपदार्थयोः सम्बन्धः एव
अस्तु
तर्हि तत् शक्तिज्ञानम् उपमितिः तं प्रति सादृशी ज्ञानम् अहं हिमं न जानामि चेत् हिम एव इति वक्तुं न शक्नोमि सादृशी ज्ञानम् इति सहकारिणः तेषां निरूपणम् अपि भवति अनुमिति किम् अनुभवविषये अनुभवम् इति स्वीकुर्मश्चेत् तस्य निरूपणं कुर्मश्चेत् न केवलं चत्वारः चत्वाराणां ज्ञानानां प्रतिपादनम् अपि तु तेषां सहकारिणः प्रतिपादनम् अपि अपि भवेत् इति अस्ति. अस्तु, अग्रे पुष्पा भगिनी.
अतः सूचिकटाः न्यायेन आदि स्मृतेः एव लक्षणमाः आह संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. एतत् तत्तु बुद्धिलक्षणं तु एतत् ज्ञानं स्मृतिः ज्ञानं तु स्मृतिः अस्ति. बुद्धिः तु अस्ति, ज्ञानं स्मृतिः तु अस्ति. पदार्थः का? अस्तु,
एकनिमिषं भगिनि. सूचीकटाः न्यायः इति किम् इत्युक्ते किम्?
न्यायेन
कोऽपि सहायं करोति वा? सूचीकटाः न्यायः इत्युक्ते
ग्रन्थः अस्ति
किं?
न्यायग्रन्थः अस्ति.
एवं वा? पूर्वम् अस्माभिः पठितम् अस्ति.
अत्र अहं वदामि वा? यः सूचीं निर्माणं करोति कटाहस्य अपि निर्माणं करोति
लोहकारः.
लोहकारः प्रथमस्य निर्माणं सरलं भवति द्वितीयस्य अपेक्षया, अतः सः प्रथमस्य कार्यं प्रथमं करोति इति.
अत्र
स्मृतेः लक्षणं सरलं भवेत् इति अन्यस्य अपेक्षया.
केवलं
क्रमं तस्य
लाघवम् आदाय स्मृतिमेव स्वीकुर्मः प्रथमम् इति.
स्मृतिः प्रथमम् आयाति, तदैव बुद्धिः आयाति.
किम्
अत्र अस्ति? तत्र
किं स्मृतिः इति बुद्धिः एव.
बुद्धिः एव ज्ञानं भवतु बुद्धिः.
परन्तु केन जायते स्मृतिः? तत्र लक्षणवाक्यमस्ति संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. संस्कारेण भवति इति. अस्तु, सुनील महोदय.
संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. व्यापारपदार्थः कः? अत्र संस्कारपदमात्रजन्यं ज्ञानं स्मृतिः इति अस्ति. अनुभवजन्या स्मृतिहेतु भावना इति लक्षणेन मूलकृता उपरिष्टात् भावनाख्यः संस्कारः निरूप्यते. परन्तु स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयमिति भावनाख्यः संस्कारः आदौ निरूप्यते. अत्र अनुभवजन्य स्मृतिहेतुर्भावना इति अत्र लक्षणवाक्यमस्ति, मूललक्षणवाक्यमस्ति. अतः अत्र भावनाख्यः संस्कारः एव अत्र निरूप्यते इति. अतः वयं पूर्वं पठितवन्तः संस्कारात् स्मृतिः आगच्छति इति, अथवा संस्कारात् स्मृतिः तिष्ठति इति. अतः परन्तु स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयम् इति भावनाख्यः संस्कारः आदौ निरूप्यते. अतः प्रथमं भावनाख्यसंस्कारस्य विषये एव निरूपणं भवति. किमर्थम् इत्युक्ते अत्र स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने एव अस्ति इति कारणेन.
इत्युक्ते किं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयः इत्युक्ते दुष्करः भवति.
ओ ओ
संस्कारः संस्कारं न न अवगच्छामि चेत् अवगच्छामश्चेत् स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयः इत्युक्ते भावनाख्यसंस्कारस्य ज्ञानम् अपेक्षितं प्रथमम्. तदाधारेण स्मृतिलक्षणं भवति. स्मृतिलक्षणं सुलभं भवति.
अतः प्रथमं भावनाख्यसंस्कारं पठित्वा स्मृतिलक्षणस्य पठनं सौकर्यं भवति.
समीचीनं. यद्यपि ग्रन्थे उपरिष्टात् इत्युक्ते अनन्तरम् इति अस्ति, प्रथमवाक्ये अस्ति खलु मूलकृता उपरिष्टात् भावनाख्य. यद्यपि ग्रन्थे संस्कारस्य निरूपणम् अग्रे एव भवति, अनन्तरमेव भवति, अत्र तु प्रथमं संस्कारस्य विषये एव चर्च्यते इति. अत्र अनुभवजन्या स्मृतिहेतुर्भावना, तत्र किञ्चित् विग्रहं करोति वा?
अत्र स्मृतिः हेतुर्भावना इति अनुभवजन्या एव, अत्र अनुभवरूपेण एव.
किम् अनुभवजन्या, का अनुभवजन्या?
स्मृतिहेतु भावना
न हेतु, तत्र हेतु भिन्न अस्ति खलु. अनुभवेन किं जायते? अनुभवेन भावना जायते. भावना इत्युक्ते अत्र संस्कारः इति.
सम्पूर्णं वाक्यं सम्पूर्णपदं नास्ति वा? अहं चिन्तितवान्
अनुभवजन्या भावना हेतुः स्मृतिः
इत्युक्ते अनुभवेन संस्कारः जायते.
तस्य हेतुः एकनिमिषं, भावना हेतुः भवति स्मृतिं प्रति इति अर्थः.
अतः अनुभवजन्यात् संस्कारः, ततः स्मृतिः, अतः संस्कारः स्मृतेः हेतुः इति.
हा समीचीनं, स्मृतेः हेतुः संस्कारः इति. बुद्धम्?
इदानीं प्रथमम् अहं चिन्तितवान् विपरीतं चिन्तितवान्.
अत्र सन्देहः अस्ति वा अस्मिन् विग्रहे?
इदानीं नास्ति.
अस्तु
भगिनी, इत्युक्ते भावना इत्युक्ते संस्कारः एव.
संस्कार भावनाख्यसंस्कारः इति अस्ति खलु.
हा ओ अस्तु.
अनन्तरम् इति अस्ति. अस्तु अग्रे शुकवनमहोदय अस्ति वा?
भगिनि
पठति वा?
हा
नियतेन.
नियतेन कारणेन कार्यस्य उत्पत्तिं वयं सर्वत्र निरूपयामः. तन्तु कुविन्दानां समवधाने पटः, चक्रकुलालकपालादीनां समवधाने घटः इत्येवं रीत्या तत्तत् कार्यस्य नियता सामग्री भवति. एताञ्च पटघटादीन् प्रति कारणत्वं पूर्वमुक्ता ये निकषाः तैः निर्धार्यते, ते निकषाः एव अन्येन प्रकारेण अन्वयसहचारः व्यतिरेकसहचारः इति पदाभ्यां निरूपिताः. नियतेन कारणेन कार्यस्य उत्पत्तिं वयं सर्वत्र निरूपयामः इति कार्यस्य निरूपणं यदा वयं कुर्मः तत्र ये ये कारणाः तत्र भवेत् इति स्वीकृत्य एव कार्यस्य निरूपणं वयं कुर्मः तन्तुकुविदानां समवधाने पटः कुविदा इत्युक्ते किं भगिनि
कुविन्दः कुविन्दः वस्त्रं वयति
हा 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 अस्तु पटस्य पटः इति कार्यं तयो तस्य कारणं तु तन्तुकुविन्दाः भवन्ति अपि च घटः इति कार्यं तस्य कारणं तु चक्रं कुलालः कपालः इत्यादयः चक्रं कुलालः तु निमित्तकारणम् इति वयं पठितवन्तः कपालः तु उपादान कारणम् इति वयं पठितवन्तः तादृशकारणानां समवधाने इत्युक्ते मिलित्वा एव घटस्य उत्पादनं कार्यस्य उत्पादनं भवति इत्येवं रीत्या तत्तत् कार्यस्य नियता सामग्री भवति नियता इत्युक्ते ये ये कारणाः आवश्यकाः तेषां समवधाने कारणानि आवश्यकानि तानि समवधानानेव कार्यस्य उत्पादनं भवति
निश्चिता नियता इत्युक्ते निश्चितकार्यकारणसामग्री भवेत् इति
आम् आम् नियता इत्युक्ते निश्चिता
अग्रे एतान्
एतान् च घट पट पटघटादीन् प्रति कारणत्वं नवविंशतिः पृष्ठे पूर्वम् उक्ताः ये निकषाः तैः निर्धार्यते इत्युक्ते तत्र कार्याधिकरणे कानि कानि कारणानि भवेत् इति कानि कानि कारणानि इति नास्ति किन्तु कार्य निकषाः इत्युक्ते कार्याधिकरणे भवेत् इति एका निकषा कार्याधिकरणे सर्वदा भवेत् इति द्वितीया निकषा अपि च कार्याधिकरणे पूर्वक्षणे भवेत् इति तृतीया निकषा इति नवविंशतिपृष्ठे अस्माभिः दृष्टम्
पूर्वक्षणे इत्युक्ते कस्य पूर्वक्षणे
कार्योत्पत्तिपूर्वक्षणे
कार्योत्पत्तेः पूर्वक्षणे इति
पठितं पूर्वक्षणे भवेत् इति पठितम् अपि च ते निकषाः एव अन्येन प्रकारेण अन्वयसहचारः व्यतिरेकसहचारः इति पदाभ्यां द्वि अशीतिः पृष्ठे निरूपिताः अन्वयः इत्युक्ते तत्सत्त्वे तत्सत्त्वम् इति व्यतिरेक इत्युक्ते तदसत्त्वे तदसत्त्वम् इति ते एव निकषाः इत्युक्ते ये निकषाः कार्यादिकरणे भवेत् ताः निकषाः भवेत्येव कार्यस्य उत्पादनं भवति तत्सत्त्वे तत्सत्त्वं तद् इत्युक्ते कारणस्य सत्त्वे कार्यस्य सत्त्वम् इत्युक्ते कारणम् अस्ति चेदेव कार्यस्य उत्पादनं भवति इति अन्वयसहचारः व्यतिरेकसहचारः एकमपि कारणं तत्र न अस्ति चेत् कार्यं न भवति इति अन्वयसहचारः व्यतिरेकसहचारः इति अस्माभिः अवगतं
व्यभिचारविषये भवती वदति भवान् वदति वा अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति
व्यभिचारः इत्युक्ते तत्र तद् असत् कारणस्य असत्त्वे कार्यस्य असत्त्वम्
खलु
व्यभिचारः
अन्वयव्यभिचारः इत्युक्ते कारणं
कारणस्य असत्त्वे कार्यस्य सत्त्वम्
न कारणमस्ति परन्तु कार्यं नास्ति इति
ओ इति अन्वयव्यभिचारः कारणस्य सत्त्वे कार्यस्य असत्त्वं
मङ्गलम् अस्ति परन्तु समाप्तिः न जाता इति पठितं खलु सरलम् उदाहरणं कादम्बर्याम् अनन्तरं व्यतिरेकव्यभिचारः इत्युक्ते
कारणस्य असत्त्वे कार्यस्य सत्त्वं यद्यपि कारणं नास्ति किन्तु कार्यं भवति एव व्यभिचारः
नास्तिकग्रन्थे
नास्तिकग्रन्थे मङ्गलाचरणं नास्ति किन्तु
तेषां
पुस्तकं समाप्तिः
इति समीचीनम् अस्तु केवलम् अत्र सारः अस्ति यत् ये निकषाः वयं निकषान् पठितवन्तः ते निकषाः भिन्नरूपेण प्रकटिताः अन्वयसहचार अन्वयव्यतिरेकाभ्यां प्रकटिताः सन्ति इत्येव सारः अत्र अस्तु अग्रे वेङ्कटेश महोदय
तादृश अन्वयसहचारव्यतिरेकसहचाराभ्याम् इदं कार्यम् इदं चास्य कारणम् इति निर्धारणे कदाचित् कारणस्य कार्याधिकरणे अदर्शनेऽपि तत्र कारणानुमितिः भवति एतस्य उक्त्वा अग्रे गच्छामि वा तत्र
तर्हि तत्र
नदीपूरे सति तद्देशे वृष्ट्य अभावेऽपि ऊर्ध्वदेशे वृष्टिः जाता इति अत एव अनुमीयते इदमेव कार्येण कारणानुमानम् इति उच्यते अस्तु अत्र यथा महोदयेन उक्तं पूर्वम् इदानीम् अन्वयसहचारः व्यतिरेकसहचारः अन्वय व्यभिचारः व्यतिरेकव्यभिचारसहचाराभ्यां तत्र कार्यकारणभावः निश्चयेन तत्र प्रत्यक्षं कार्यं कारणम् अस्ति कारणं नास्ति इति तयोः मध्ये तत्र इदं कार्यं येन कारणेन भवति येन कारणेन न भवति इति तत्र निर्धारितम् अस्ति परन्तु कदाचित् कार्यादिकरणे कारणस्य अदर्शनम् अतः अदर्शनेनपि यदि द्रष्टुं न शक्नुमः तथापि कार्यं यदा जातं भवति तदा कारणम् अस्ति इति किञ्चित् अनुमितिपूर्वकज्ञानं तत्र भवितुम् अर्हति उदाहरणार्थं नदीपूरे यदा तत्र वृष्टि अभावः असत्येपि तत्र ऊर्ध्वदेशे वृष्टिः जाता इति किञ्चित् कदाचित् वयम् अनुमानं कर्तुं शक्नुमः यतः तत्र किञ्चित् दूरे तत्र वृष्टिः भवति अत्र वृष्टिः अभावः वृष्टेः अभावः नास्ति तथापि तत्र अत्रत्य वृष्टेः कारणम् आदर्शनम् अस्ति तथापि किञ्चित् दूरे प्रायः तस्य कारणम् अस्ति इति तत्र अनुमानेन तत्र वृष्टिः तत्र भवति इति अनुमितिज्ञानं तत्र भवति इति कारणात् तत्र साक्षात् कारणम् अदृष्टं तथापि तत्र कार्यं भवति इति अनुमितिज्ञानं तत्र उत्पादनं भवति इदेव तत्र कारण एतदेव तत्र कार्येण तत्र कारणानाम् अनुमानं इति तत्र तस्य कथनम् अस्ति इदमेव कार्येण कारणं
समीचीनम् इत्युक्ते केनापि प्रमाणेन प्रमाणम् अस्ति अत्र अन्यदेशे अन्ये देशे वृष्टिः जाता तेन कारणेन अत्र यद्यपि साक्षात् न दृष्टा परन्तु ज्ञानमस्ति यत् अन्ये देशे वृष्टिः जाता इति कृत्वा अत्र कार्यम् अभवत् नद्यां पूरः अस्ति इति अनुमितिः जायते तदेव कार्येण कारणानुमानम् इति अस्ति अस्तु अग्रे सरला भगिनी
परन्तु कदाचित् अन्वयव्यक्तिरेखाभ्यां कारणत्वे अवधारिते अपि केनचित् प्रमाणेन कारणस्य अभावः कार्याधिकरणे निश्चीयते कदाचित् अन्वयव्यक्तिरेखाभ्यां यदि वयं पूर्वं दृष्टवन्तः कारणं अस्ति किन्तु कार्यं नास्ति कारणसत्त्वे कार्यम् असत्त्वं तस्तति अन्वयवक्तिरेकाभ्यां कारणत्वे अपि अवधारते केनचित् प्रमाणेन कारणस्य अभावकार्याधिकरण करणे निश्चीयते. कारणस्य अभावेन अपि कार्याधिकरणे निश्चीयते.
किमस्ति कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवधारिते अपि इत्युक्ते कार्यकारणभावः अस्ति इति ज्ञानम्. कार्यकारणभावस्य विद्यमानेन एव एते दृष्टान्ताः सन्ति खलु, अन्वयसहचारः, व्यतिरेकसहचारः इत्यादयः. कार्यकारणभावः भवेत्. कार्यकारणभावः यद्यपि जानीमः तथापि कारणमेव नास्ति तत्र. कारणस्य अभावः अस्ति
किन्तु कार्याधिकरणं निश्चयेन अस्ति तत्र.
किं भगिनि? प्रमाणेन कारणस्य अभावः कार्याधिकरणे निश्चीयते इत्युक्ते कार्याधिकरणे कारणं नास्ति इति ज्ञानम्. तस्य अभावः अस्ति इति. अत्र अनुमितेः प्रसङ्गः अपि नास्ति. यतोहि किमर्थम् अनुमतिः न जायते?
यदि कारणमस्ति तर्हि तदा अनुमतिः जायते.
परन्तु पूर्वस्मिन् उदाहरणे कारणं नास्ति खलु, कारणं न दृष्टं, वृष्टिः न दृष्टं, परन्तु अनुमतिः कथं जायते?
कार्यं दृष्टम्.
अत्रापि कार्यम् अस्ति, अत्रापि कार्यम् अस्ति, कार्यम् अस्ति, परन्तु कदाचित् तादृशं प्रमाणमपि न लभ्यते. अन्यदेशे वृष्टिः आसीत् इत्यस्य प्रमाणम् अपि न लभ्यते अत्र, परन्तु इत्यस्मात्. तर्हि कारणमेव नास्ति कदाचित्, तर्हि किं कुर्मः इति समस्या. रत्ना भगिनी
अग्रे पठामि वा भगिनि? अस्तु. तदा इदं कारणम् इदं कार्यम् इति व्यवहारः कथं निर्वाह्यः इति चिन्तायां शास्त्रे व्यापारकल्पना आगता. अस्तु, इदानीं कारणं न पश्यामः चेत्, नास्ति चेत्, कारणस्य अभावः अस्ति चेत् तदा इदं कार्यम् इदं कारणम् इति कथं व्यवहारं कुर्मः? कारणमेव नास्ति इत्युक्ते तदा तथा इदं कारणम् इदं कार्यम् इति व्यवहर्तुं शास्त्रे एका कल्पना आगता, व्यापारकल्पना इति स्वीकृतम् अस्ति.
अत्र निर्वाह्यः इत्युक्ते किं?
निर्वाह्यः इत्युक्ते पूरणार्थम् इत्युक्ते अयं कार्यम् अयं कारणम् इति व्यवहारस्य पूरणार्थम् अस्माभिः वयं जानीमः कार्यमस्ति चेत् कारणम् अस्ति एव इति. कारणम् इदानीं न दृष्टं चेत् कथं वदामः कार्यमिदं कारणमिदम् इति? तथा वदनार्थम् एतदस्ति व्यापारकल्पना इति शास्त्रे.
कार्यकारणभावः तु वयं जानीमः, सम्बन्धः भवेत् इति, परन्तु कारणस्य अभावे किं कुर्मः इति समस्यायां शास्त्रे व्यापारकल्पना इति, व्यापारः इत्युक्ते माध्यमं, तस्य प्रयोगं कुर्मः इति अस्ति. अस्तु, विलम्बः जातः. अस्तु, अत्र सन्देहः अस्ति वा अद्यतनपाठे? प्रश्नः सन्देहः
अस्ति भगिनि, किन्तु तत्र सर्वं तत्रैव किञ्चित् अहं मेल् प्रेषयामि भगिनि,
मम चिन्तनं किं इति प्रेषयतु महोदय. अवश्यम् अवश्यं महोदयं पृच्छामः. अस्तु तर्हि धन्यवादः, शुभरात्रिः.
धन्यवादः भगिनि.
धन्यवादः.